एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री एमाले दलस्य अध्यक्षस्य केपी शर्मा ओली जनतायाः जीवने अनुकूलं परिवर्तनम् आनेतुं सर्वविध काठिन्य परिस्थितेः प्रतिकरणं कृत्वा अग्रे वर्धितुं कार्यकर्तृन् अनुरुणद्धि। दलस्य केन्द्रीय संघटन विभागेन ह्य ललितपुरे आयोजितां स्थानीय स्तरे दलस्य कार्याणि समस्याः तासां समाधानं चेति विषयिणीं द्विदिवसीय राष्ट्रिय कार्यशालां सम्बोधयन् प्रधानमन्त्री ओली देशस्य परिस्थितौ परिवर्तनस्य आनयनत्वेन सम्पूर्ण दलपंक्तेः परिचालनाय बलं प्रादात्। प्रधानमन्त्री ओली जनतायाः जीवने अनुकूल परिवर्तनम् आनेतुं सर्वैः प्रवर्तनीयमिति भाषमाणः दलाभ्यन्तरे वैचारिक स्पष्टताम् एकतां च सन्धार्य समाजवादस्य यात्रायाम् अग्रेसरैर्भाव्यमिति बलं प्रादात्। प्रधानमन्त्री ओली दलाभ्यन्तरे विमतेः विज्ञापनस्य परं समुचित मार्गस्य अदर्शनस्य प्रवृत्तिः दृश्यमानास्तीति समस्पष्टयत्। परैः प्रारब्धायां कार्यशालायां एमाले दलस्य सम्पूर्णानां जनपद समितिनाम् अध्यक्षाणां सचिवानां संगठन विभागस्य प्रमुखाणां प्रदेश समितितः अतिरिक्तस्य महिलाद्वयस्य जनसंघटनस्य केन्द्रीयाध्यक्षस्य महासचिवस्य महानगरोपमहानगराणां एमाले दलात् निर्वाचितानां प्रमुखोपप्रमुखाणां च सहभागिता आसीत्। प्रधानमन्त्री केपी शर्मा ओली निगदति राजनीतिक्याः अस्थिरतायाः अन्त्यं विधाय देशं सुसंस्कृत राजनीतिक मार्गे सञ्चालयितुं वर्तमान सर्वकारः संघटितोऽस्ति। ज्यापू संस्कृति विकास कोषेण ह्य काष्ठमण्डपे एकविंशस्य राष्ट्रिय ज्यापू दिवसस्य अवसरे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली देशस्य परिवर्तने योगदानं विहितवतां दलानां विषये अनावश्यकं भ्रमं प्रसार्य अपयेषु विस्तार्य च राजनीतिकोपलब्धि समापयितुं प्रयत्नः विधीयमानोऽस्तीत्यतः द्वयोः विपुलदलयोः सहकारेण सर्वकारः निर्मितोऽस्ति इति प्रावोचत्। प्रधानमन्त्री ओली ज्यापुगुठी संस्थानस्य अक्षयकोषस्य कृते धनराशिः प्रवर्धते इति समाश्वासयत्। गृहमन्त्री रमेश लेखकः भाषते राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछाने विदस्य अनुसन्धानस्य कार्याणि विध्यनुसारेण जायमानानि सन्ति। ह्य भरतपुरे प्रेस युनियन संघेन आयोजिते पत्रकार सम्मेलने गृहमन्त्री लेखकः लामिछाने विदस्य विरूद्धे राजनैतिक प्रतिशोधः विधीयमानोऽस्तीति आरोपः निराधारोऽस्तीति अवदत्। लामिछाने विदस्य अनुसन्धानं विधेरनुसारेण एव जायमानमस्तीति चर्चयन् गृहमन्त्री लेखकः अनुसन्धानस्य क्रमे कथं विधमपि मानवाधिकाराणां हननं सम्भूतं नास्तीति समस्पष्टयत्। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह निगदति नेपाली कांग्रेस दलं विधे शासनस्य स्थापनायाः अभियाने वर्तते। ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे उपप्रधानमन्त्री सिंह विधेरनुसारेण सर्वकारः सञ्चाल्यते इति चर्चयन् विधे शासनस्य स्थापना नेपाली कांग्रेस दलस्य प्राथमिकतायामस्तीति अवोचत्। उपप्रधानमन्त्री सिंह सर्वाण्यपि कार्याणि विधेय प्रक्रियायाः अनुसारेण भवन्तीति विषयं सम्यक् बुद्ध्वा कार्यकर्तृभिः दलं सुदृढं विधातुं ध्यानं देयमित्यत्र बलं प्रादात्। प्रधान सेनापतिः अशोकराज सिग्देलः भारतस्य औपचारिकं भ्रमणं प्रपूर्य ह्य स्वदेशं प्रत्यागतोऽस्ति। भारत भ्रमणस्य क्रमे भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू सेनापतये सिग्देलाय भारतीय स्थलसेनायाः मानार्थ महारथी पदस्य चिह्नं प्रायच्छत्। भ्रमणस्य क्रमे प्रधान सेनापतिना सिग्देलेन भारतस्य रक्षामन्त्रिणा राजनाथ सिंहेन राष्ट्रिय सुरक्षा परामर्शदात्रा अजित डोभल इत्यनेन प्रतिरक्षा प्रमुखेण अनिल चौहान इत्यनेन स्थलसेनाध्यक्षेण उपेन्द्र द्विवेदिना रक्षा सचिवेन विदेश सचिवेन च सहापि पृथक् पृथक् मेलवार्ताः विहिताः आसन्। प्रधान सेनापतिः सिग्देलः भारतस्य स्थलसेनाध्यक्षस्य निमन्त्रणायां गत मंगलवासरे भारतदेशं गतवान् आसीत्। नेपाल पत्रकार महासंघस्य अध्यक्ष निर्मला शर्मा विजयिनी सम्भूता अस्ति। महासंघस्य केन्द्रीय निर्वाचन समितेः ह्य सायं सार्वजनिक कृतस्य मतपरिणामस्य अनुसारेण शर्मणा सहस्र चतुष्टयं शत द्वयं द्वयशीतिश्च मतानि अवाप्य अध्यक्ष पदे निर्वाचिता वर्तते। एतस्याः निकटतम प्रतिद्वन्दिना रमेश विष्टेन सहस्र त्रयं शत द्वयं त्रीणि च मतानि प्राप्तानि आसन्। वरिष्ठोपाध्यक्ष पदे दीपक आचार्य, महिलोपाध्यक्ष पदे नीतु पण्डित, समावेशिनी उपाध्यक्ष पदे उमेद प्रसाद बाग्चन्द च विजयिन सम्भूता वर्तन्ते। महासचिव पदे रामप्रसाद दाहाल निर्वाचितोऽस्ति। केन्द्रीय सदस्य पदे रेडियो नेपालस्य मुकुन्द प्रसाद भण्डारी, लेखा समितेः महिला सदस्य पदे रेडियो नेपालस्यैव रूक्मिणी पोखरेलश्च निर्वाचिते वर्तेते। नेपाली कांग्रेस दलस्य नेता विमलेन्द्र निधि भाषते लोकतन्त्रं विना स्वतन्त्र संचारस्य परिकल्पनं कठिनं भवति। नेपाल पत्रकार महासंघस्य धनुषा शाखायां निर्वाचितानां पदाधिकारिणां सम्माने ह्य आयोजिते कार्यक्रमे नेता निधि देश निर्माणस्य कर्मणि इतोप्याधिकेन जनः सावधानी विधेयः इति अवदत्। नेपाल तैल निगमेन पेट्रोल तैलस्य मूल्यं वर्धितमस्ति। डिजेल मृत्तिका तैलयोः मूल्यं न्यूनीकृतञ्च वर्तते। निगमस्य संचालक समितेः स्थनोपवेशेन गतरात्रौ द्वादशवादनतः क्रियान्वयनत्वेन पेट्रोल तैले प्रतिलिटर मितं रूप्यकद्वयं वर्धितमस्ति। डिजेल मृत्तिका तैलयोः प्रतिलिटर मितं रूप्यकद्वयमेव न्यूनीकृतं वर्तते। सप्तविंशतेः वर्षेभ्यः पूर्वं पिहितं कैलाली जनपदस्य टीकापुर विमानस्थलं नियमिततया सञ्चाल्यमानमस्ति। ह्यः तारा विमानसंस्थायाः ट्विनटर विमानस्य चालकदलस्य त्रिभिः सदस्यैः सह षड् कर्मचारिणः द्वादश यात्रिणश्च आरोह्य टीकापुर विमानस्थले अवतरणेन सहैव विमानसेवा नियमितरूपेण आरब्धा अस्ति।